एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। स्व वैशाखस्य एकादशादिवसात् सञ्चालनाय भीतपूर्वकार्या द्वादशकक्षायाः परीक्षा दशदिवसेभ्यः पश्चात् भविता। प्रधानमन्त्रिणः केपी शर्मा ओलिना परामर्शनस्य अनुसारेण राष्ट्रिय परीक्षा समित्या ह्य सायम् उपवेशम् उपविश्य द्वादशकक्षायाः परीक्षाम् अस्यैव वैशाखस्य एकविंशात् दिवसात् सञ्चालयितुम् निर्णीतम् वर्तते इति समितेः अध्यक्ष माश्रम शर्मा अज्ञापयत्। ह्य प्रातः समितेः उपवेशम् उपविश्य सर्वकारीय कर्मचारिणः परिचाल्य अपि स्व एकादशात् दिवसादेव परीक्षां सञ्चालयितुम् निर्णीतम् आसीत्। तत्पूर्वं सर्वकारीय कर्मचारिभिः अपि परीक्षायां सहयोगो न विधास्यते। शिक्षकान् विना परीक्षायाः सञ्चालनस्य निर्णये विवादोत्पन्नस्य च पश्चात् समितेः पदाधिकारिभिः आदिनं शिक्षा मन्त्रालयस्य सर्वकारस्य विभिन्न निकायानां प्रतिनिधिभिश्च सह विमर्शनं विहितम् आसीत्। प्रधानमन्त्री केपी शर्मा ओली निगदति नेकपा नामकं नेपाल कम्युनिष्ट पार्टी इति दलं समृद्धस्य समतामूलकस्य च समाजस्य निर्माणाय नेतृत्वं कृत्वा अग्रे वर्तमानं वर्तते। नेकपा दलस्य 67वां स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नेकपा दलेन स्थापना कालादेव परिकल्पितस्य समतासहितस्य समृद्धस्य शान्तिपूर्णस्य च समाजस्य निर्माणाय स्वस्य दलं क्रियाशीलम् अस्तीति अगदत्। तदवसरे प्रधानमन्त्री ओली विभाजनकर्तृभ्यः षड्यन्त्रस्य कारकेभ्यश्च जनेभ्यः दलं संरक्ष्य सफलतापूर्वकं वामान्दोलनम् अग्रे वर्धापितमस्तीति उदैरयत्। तदवधौ प्रधानमन्त्री ओली शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराई इत्यनया असहमतेः उपेक्षया च स्वास्थ्यस्य कारणेन त्यागपत्रं प्रदत्तमस्तीति समस्पष्टयत्। शिक्षामन्त्रिणः त्यागपत्रस्य विषयः प्रधानमन्त्रिणः असहयोगस्य उपेक्षायाश्च कारणेन सम्भूतोऽस्तीति बहिः कुप्रचारितः इत्यत्र असन्तुष्टिं ज्ञापयन् प्रधानमन्त्री ओली अनावश्यक कुप्रचारस्य औचित्यं नास्तीति समस्पष्टयत्। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य स्वास्थ्य परीक्षणाय बैंकक गमनस्य सन्दर्भमपि सर्वकार विघटनस्य विषयेण सह संयोज्य कुप्रचारितम् स्थिति चर्चयन् प्रधानमन्त्री ओली असहमतेः अनुसारेणैव आत्मना पद हस्तान्तरणं करिष्यति इति समस्पष्टयत्। एकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमलदाहाल प्रचण्डः भासते वामान्दोलनं विभाजनस्य बलिदानस्य च मध्ये अद्यतनावस्थायां प्राप्तमस्ति। नेकपा दलस्य 67वां स्थापना दिवसस्य 50वां लेलिन जयन्त्याः अवसरे च ह्य दलकेन्द्रीय कार्यालये आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड लेलिन इत्यस्य जन्मजयन्त्याः दिने दलस्य स्थापना ऐतिहासिकः संयोगः एव न अपितु प्रेरणायाः विषयोऽस्तीति प्रत्यपादयत्। तदवसरे अध्यक्ष प्रचण्ड अद्यतने आवश्यकता वामपन्थीनाम् एकता एव अस्तीति बलम् प्रादात्। धनुषा जनपदस्य सैदेनगर नगरपालिकायाः पञ्चम वडा क्षेत्रस्य वासुदेवपट्टिस्थाने विषसेवनाद तिस्रः बालबालिकाः मृताः सन्ति। मातुः अवस्था गभीरा च वर्तते। विषसेवनेन स्थानीयस्य सुशील शाहस्य अष्टवर्षीयः पुत्र आदित्य पुत्र्यौ चतुर्वर्षीया आकृति द्विवर्षीया आरुषि च मृते इति धनुषा जनपद प्रहरी कार्यालयस्य प्रवक्ता वरूण बहादुर सिंह असूचयत। विषसेवनस्य पश्चात् गभीरावस्थायां स्थिताः तिस्रा एव बाल बालिकाः जनकपुरवर्तिनी प्रादेशिक चिकित्सालये नीताः आसन्। उपचारस्य क्रमे 30 एव बालबालिकाः मृताः सन्ति। गभीरावस्थायां स्थितायाः 30 वर्षीयायाः मातुः बबिता शाहस्य उपचारः जायमानोऽस्तीति प्रेरणा ज्ञापितं वर्तते। बबिता इत्यनया तिसृभ्यः एव बालबालिकाभ्यः विषं प्रदाय तदनन्तरम् आत्मना अपि विषं संसेव्य आत्महत्यायै प्रयासाभिहितोऽस्तीति प्रारम्भिकानुसन्धानाद् ज्ञातमस्ति। घटनायाः विषये अतिरिक्तम् अनुसन्धानं विद्यमानमस्तीति च प्रेरणा ज्ञापितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली जलवायु परिवर्तनस्य कारणेन दुःखं कष्टं च सोडमानेभ्य सोलुखुम्बु जनपदस्य थामे क्षेत्रस्य जनेभ्य सहयोगाय प्रतिबद्धतां व्यनक्ति। सगरमाथा संवादस्य पूर्वसन्ध्यायां सगरमाथा क्षेत्रस्य थामे ग्रामे आयोजिताय आरोही सम्मेलनम् जलवायु न्यायस्य कृते संवादस्येति विषयिणे सम्मेलनाय ह्य शुभकामनाम् प्रददत् प्रधानमन्त्री ओली थामेवासिभ्यः सहयोगाय प्रतिबद्धताम् व्यक्तवान्। कार्यक्रमे रक्षा मन्त्रिणः मानवीर राय इत्यस्य, वन वातावरण मन्त्रिणः ऐनबहादुर साईनः, कतारस्य राजकुमार्याः, सगरमाथा शिखरस्य आरोहिण्याः आस्मा अल्थानी इत्यस्याश्च सहभागिता वर्तते। प्रतिनिधि सभा अन्तर्गतया राज्य व्यवस्था सुशासन समित्या सर्वकारीय सेवा सम्बद्ध विधेयकम् आधृत्य ह्य कर्मचारी संघ संगठनानाम् प्रतिनिधिभिः सह विमृष्टम् वर्तते। विमर्शने शरणामेव कर्मचारी संघ संगठनानाम् पक्षतः प्रतिनिधिभिः संघीय सर्वकारीय सेवायाः घटनम् संचालनम् सेवा शपथश्चेत्यादीनाम् सम्बन्धे व्यवस्थात्म निर्मिते विधेयके समावेशनीयानाम् याचनानाम् विषये ज्ञापितम् आसीत्। ऊर्जा जलस्रोत सेचन मन्त्रिणः दीपक खड्का विदस्य भारतस्य विद्युत् आवास नगरीय विकास मन्त्रिणः मनोहरलाल खट्टर इत्यस्य च उपस्थितौ नेपाल भारतयोर्मध्ये अन्तर्देशीय प्रसारण प्रणाल्याः विस्ताराय महत्वपूर्णा संविदा सम्भूतास्ति। ऊर्जो मन्त्रिणः खड्का विदस्य निमन्त्रणायां द्विदिवसीय भ्रमणाय ह्य नेपालं प्राप्तस्य भारतीय विद्युत् मन्त्रिणः खट्टर इत्यस्य ऊर्जो मन्त्रिणः खड्का इत्यस्य च उपस्थितौ देशद्वयस्य मध्ये ऊर्जा क्षेत्रस्य विकासाय महत्वपूर्ण संविदा सम्भूतास्ति। संविदापत्रे नेपाल विद्युत प्राधिकरणस्य निर्देशकेन कमलाचार्येण, भारतस्य पावर ग्रिड लिमिटेड संस्थानस्य निर्देशकेन डाक्टर यतीन्द्र द्विवेदिना च संयुक्त रूपेण हस्ताक्षराणि विहितानि आसन्।